नमस्कारः, पुनः नूतनन्यायवर्गे स्वागतम्. गतवर्गे वयं समवायः इति पदार्थस्य परिचयं प्राप्तवन्तः. तत्र च अस्माभिः दृष्टमासीत् समवायः इति यः पदार्थः अस्ति सः पदार्थः कश्चन सम्बन्धः अस्ति. समवायः इति कश्चन सम्बन्धः अस्ति, अपि च समवायः इति यः पदार्थः सः एकः एव इत्युच्यते. समवायः पञ्चस्थलेषु वर्तते: अवयवयविनोः, गुणगुणिनोः, क्रियाक्रियावतोः, जातिव्यक्तोः, विशेषनित्यद्रव्ययोः समवायः इति दृष्टम्. अनेन भावपदार्थानां परिचयः प्राप्तः. समवायः भावपदार्थः, द्रव्यगुणकर्म सामान्यं विशेषः समवायः इति षड् भावपदार्थाः. तदनन्तरं सप्तमः पदार्थः अस्ति अभावः, तस्य विषये अद्य पठेम. अभावः इति विषयः पृष्ठे अस्ति, कृपया सर्वे तत्र गच्छन्तु. नूतनतया केन आगतम्? रघुपतिमहोदय इति भाति
खलु?
नमस्कारः महोदय. अस्तु, तर्हि अभाववर्णनम् अस्मात् आरभ्य अद्यतनविषयः. विजया भगिनी पठति वा अभाववर्णनम् इति षोडशे पृष्ठे? भगिनी अस्ति? अस्तु, विद्या भगिनी आरब्धुम् इच्छति वा? अस्तु विजया भगिनी, अनन्तरं पठतु. अग्रे गच्छतु.
एतावता उद्देशक्रमानुसारेण षट् भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यम् अस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते तम् अभावं परिशीलयामः. किञ्चित् भूतलम् अस्ति, तत्र घटो यदि अस्ति तदा एवं व्यवहरामः. अत्र भूतले घटः अस्ति इति. यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति. घटः अस्ति इति व्यवहाराय, भाषणाय घटः ज्ञातव्यः भवति. तथा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति? स एव अभावः इत्युच्यते. इदानीम् अत्र अभावपदार्थस्य वर्णनम् एतावता अत्र उद्देश्यग्रन्थे यत्र नाम्ना निर्देशनं भवति तत्र वयं षड्भावाः इत्युक्ते द्रव्यं, गुणः, कर्म सामान्यं, विशेषः समवायः एतान् पदार्थान् वयं दृष्टवन्तः. इदानीम् अत्र अभावः, यत्र भावः नास्ति तादृशपदार्थः. भावः इत्युक्ते यत्र अस्ति इति ज्ञानं भवति अयमेव भावः. यत्र नास्ति इति ज्ञानं भवति तदेव अभावः. अत्र यथा द्रव्यम् अस्ति, गुणः अस्ति, समवायः अस्ति, ते सर्वे भावपदार्थाः, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति तदेव अभावः. अभावः कीदृशः इति परिशीलयामः. अत्र भूतलम् अस्ति, भूतले घटः यदि अस्ति तर्हि वयं घटं दृष्ट्वा अत्र भूतले घटः अस्ति इति वदामः. परन्तु भूतलात् यदि घटः अन्यत्र स्थापयामः तदा भूतले घटः नास्ति इति वदामः. भूतले घटः अस्ति इति वदनार्थं तत्र प्रथमतया घटस्य ज्ञानम् आवश्यकम्. तदेव अत्र भूतले घटः नास्ति इति वदनार्थमपि तत्र घटः नास्ति इति ज्ञानस्य आवश्यकता अस्ति. यत्र भूतले घटः नास्ति तत्र अभावः इति उच्यते.
समीचीनं भगिनी, सुष्ठुरीत्या प्रतिपादितम्. अत्र कोऽपि प्रश्नः वा कस्यचित्? सर्वम् उक्तमेव भगिन्या इति भाति. अस्तु, एकमपि वक्तव्यमस्ति यद् अस्मिन् परिच्छेदे भगिनी पठितवती खलु, द्रव्यमस्ति, गुणः अस्ति, समवायः अस्ति, तद्वत् अभावः अस्ति इति अपि व्यवहारः शक्यः. यद्यपि अभावः इति भावपदार्थः नास्ति, तथापि अभावः अस्ति इति व्यवहारः शक्यः. किन्तु अभावः इति भावपदार्थः न. भावपदार्थाः इत्युक्ते ये पदार्थ अभावरूपेण न स्वीक्रियन्ते ते इति, द्रव्यगुणकर्म समवायः सामान्यं विशेषः, इमे भावपदार्थाः. अभावः इत्युक्ते नास्ति इत्यस्मिन् अस्ति अभावः इति वदामः, परन्तु अभावः अस्ति इति अपि प्रतीतिः शक्यः. अस्तु, इति भेदः अस्ति तत्र. अस्ति अस्ति इत्यस्य प्रयोगः केवलं भावपदार्थानां, षड् भावपदार्थानाम् इति न, अभावस्य विषये अपि तथा प्रयोगः भवितुम् अर्हति इति. अस्तु, किन्तु सत्ता इति या जातिः अस्माभिः दृष्टा पूर्वं, पश्यन्तु परमपरं चेति द्विविधं सामान्यम् इति खलु. सत्ता या जातिः अस्माभिः दृष्टा, सा जातिः अस्ति. अस्तित्वम् अस्ति अस्ति इत्यस्य अस्तित्वम् अस्तित्वविषये न वदति. सत्ता इति एका जातिः, पारिभाषिकशब्दः, तत्र एकादश अस्ति खलु. सत्ता, द्रव्यं सत्, गुणः सन्, कर्म सत्. यद्यपि द्रव्यमस्ति, गुणः अस्ति अथवा कर्म अस्ति इति तेन ज्ञायते, तथापि सत्ता इति काचित् पारिभाषिकसंज्ञा अस्ति. सत्ता इति एका जातिः अस्ति, द्रव्यगुणकर्मणि एव वर्तते, द्रव्यगुणकर्मसु वर्तते. अस्तु, इति वक्तव्यमस्ति, तावदेव. अस्तु, अभावस्य परिचयः जातः किञ्चित्, इतः अग्रे सरेम. कः पठति तत्र? हा, अधुना विजया भगिनी पठति वा?
आं भगिनि, पठामि. अत्र व्यवहारः अपि अस्ति विशेषः. पात्रे अस्मिन् कियत् जलमस्ति इति, पृष्ठे अर्धमस्ति इति क्वचित् अस्ति, क्वचित् अर्धं पात्रस्य रिक्तमस्ति इति अस्ति. पात्रं तु तदेव, वर्णति तावदेव, तदापि क्वचित् अस्ति इति वदति, क्वचित् नास्ति इति वदति.
भगिनी, विजया भगिनी, भवती किं, भवत्याः फोन् किं स्पीकर् मध्ये अस्ति वा? स्पीकर् स्पीकर् मध्ये, स्पीकर् मोड् मध्ये अस्ति वा भवत्याः? स्पीकर् मास्तु,
एकनिमिषम्,
कृपया साक्षात् अधुना पश्यतु.
इदानीं समीचीनं वा?
हा, समीचीनं, बहु समीचीनतया श्रूयते. अस्तु,
पात्र तदापि कश्चित् अस्ति इति वदति, कश्चित् नास्ति इति वदति. तद्वत् एव सर्वैः अभावम् अधिकृत्य भूतले गतः नास्ति इति उच्यते. न्यायशास्त्रे नास्ति इति अनुष्ट्वा भूतले गतभावः अस्ति इति उच्यते. अत्र व्यवहारः अपि अस्ति विशेषः. विशेषः इत्युक्ते ज्ञानशब्दः प्रयोगः, तत्र विशिष्टमिति तत्र अस्ति. पात्रे पात्रे पात्रे
वदामि, अत्र व्यवहारेपि अस्ति विशेषः इत्युक्ते व्यवहारः यः अस्ति न्यायशास्त्रे, सः विशिष्टः व्यवहारः. तत्र ब्रह्म
विशिष्टः व्यवहारः,
विशेषः इति एकः पदार्थः अपि अस्ति खलु भगिनि, नित्यद्रव्यव्यवहारः
तत्र विशिष्टः अस्ति.
तादृशविशेषः अस्ति, तावदेव, विशेषः इति पदार्थः. अस्तु, अग्रे
व्यवहारः किम् इत्युक्ते
किं भगिनि? अना भगिनि,
व्यवहारः किम् इत्युक्ते?
व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः. व्यवहारः इति
लौकिके व्यवहारः इत्युक्ते आक्टिविटीस् अस्ति खलु भगिनि लौकिके
किम्
हा अस्तु भगिनि व्यवहारः हा तद् स्यात् न्यायशास्त्रे अन भगिनि ज्ञानजनकः शब्दप्रयोगः यदा वयं शब्देन किमपि वदामः अस्तु अपरेषां ज्ञानजननार्थं शब्देन किमपि वदामश्चेत् व्यवहारः इति वदामः न्यायशास्त्रे नामकरणं ज्ञानजनकशब्दप्रयोग शब्देन यत्किमपि वदामः अस्तु अहं भवतीम् उद्दिश्य किमपि वदामि भवत्याः ज्ञानजननार्थं किमपि वदामिश्चेत् तदेव व्यवहारः इति
एकं विषयं मनसि स्थापनार्थं त्रीणि विषयाणि सन्ति एतत् किम् इत्युक्ते प्रत्यक्षम् अनुमानं शब्दम् इति
बहु अग्रे मा गच्छतु अत्र व्यवहारः इत्युक्ते अना भगिनि इन् सिम्पल् वर्ड्स् वेन् यु यूस् वर्ड्स् टु एक्स्प्लेन् सम्थिङ्ग् टु सम्बडि दट् बिकम्स् अ व्यवहारः
अस्तु
न भगिनि शब्दः इत्युक्ते शब्देन न्यायशास्त्रे ज्ञातुं शक्नुमः एतदेव खलु तत्र
ज्ञानजनः शब्दप्रयोगः तावदेव
अस्तु
कः पृच्छन् आसीत् श्रीधर् महोदय
अहं चिन्तितवान् सर्वाः शब्दाः ज्ञानजनकशब्दाः एव सर्वे
हा परन्तु शब्दस्य विशेषः अर्थः अस्ति शाक्तम् इति वदन्ति तत्र तादृशः अपि एकः ग्रन्थः स्यात् शब्दस्य विशेषः शक्तिः अस्ति अर्थावगमनार्थम् इत्युक्ते यः कोऽपि शब्दं यं कमपि शब्दं वयं शृणुमः काका कीकी तत् सर्वं ज्ञानजनकशब्दप्रयोगः नास्ति अपरेषां मनसि कश्चन ज्ञानम् उदेति चेत् शब्दप्रयोगः सार्थकः भवति सः एव व्यवहारः इत्यपि उच्यते उदं यः कोऽपि शब्दः व्यवहारः न भवति
उदाहरणं ददातु शब्दः ज्ञानं न ददाति
यथा मया उक्तं केवलं कोऽपि शब्दं करोति चेत् का की
शब्दः नास्ति न बहु शब्दः नास्ति शब्दः अर्थात् एतत् वर्ड्
वर्ड् नास्ति वर्ड् इति नास्ति शब्दः इति एकः गुणः अपि अस्ति खलु आकाशे सौण्ड् इति
ओ सौण्ड्
तर्हि न्यायशास्त्रे ज्ञानजनकशब्दप्रयोगः व्यवहारः भवति यत्किमपि सौण्ड् इति अथवा शब्दः तथा नास्ति इति अवगन्तव्यम् अस्तु
धन्यवादः
अस्तु कोऽपि अस्ति वा नूतनतया भानुचैतन्यमहोदय इति भाति
आम् हरि ओम् नमस्कारः भगिनी अहं भानुचैतन्य
नमस्कारः अस्तु विजया भगिनी अग्रे गच्छतु पात्रे अस्मिन्
पठामि वा भगिनि
अग्रे गच्छतु भगिनि आं पात्रे अस्मिन्
पठामि वा भगिनि
आं भगिनि पठतु
भगिनि पात्रेऽस्मिन् कियत् जलमस्ति इति पृष्ठे अर्धमस्ति इति कश्चित् अस्ति पात्रे कियत् किञ्चित् जलमस्ति इति कश्चन जनाः वदन्ति अर्धमपि तत्र चषके जलम् अस्ति इति कश्चन जनाः वदन्ति कश्चित् तु अर्धं पात्रस्य रिक्तमस्ति कश्चन जनाः वदन्ति रिक्तं तत्र जलं किञ्चिदपि नास्ति इति उक्तवन्तः पात्रं तु तदेव जलमपि तावदेव तदापि कश्चित् अस्ति इति वदति कश्चित् नास्ति इति वदति कश्चित् अर्धमेव वदति कश्चित् रिक्तम् इति वदति अतः अभावम् अधिकृत्य तत्र सामान्यस्य व्यवहारः इति वयं मनसि स्थापनीयं यथा भूतले घटः नास्ति इति उच्यते घटस्य अभावः तत्र अस्ति न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले गत अभावः अस्ति इति उच्यते. एतत् गत अभावः तत्र अभावस्य ज्ञानं मनसि स्थापनीयम्
इति एव व्यवहारः न्यायशास्त्रे. घटः नास्ति, घटः नास्ति इति व्यवहारं त्यक्त्वा भूतले घटाभावः अस्ति इति व्यवहारः क्रियते न्यायशास्त्रे. तदर्थमेव तदर्थम् आरम्भितं व्यवहारे अपि अस्ति विशेषः तादृशव्यवहारः. नैयायिकानां सकारात्मकरीत्या वदन्ति भूतले घटाभावः अस्ति इति. एतदर्थमेव हा समीचीनं भगिनि. एतदर्थमेव अभावः इति एकः पदार्थः स्वीकृतः नैयायिकैः. उत्तमं सर्वैः.
भगिनि प्रश्नः अस्ति, यत्र वयम् अस्ति नास्ति अभावः इति वदामः सर्वदा किमपि अधिकरणम् उद्दिश्य एव वदामः वा?
भूतले घट अस्तु तथा कोऽपि नियमः नास्ति विद्या भगिनि.
किमर्थं पृच्छामि इति चेत् तत्र अभावः इति पदार्थः विशेषे अपि अस्ति. तर्हि विशेषः इति पदार्थः नित्यपदार्थः, तत्र आत्मा अथवा आकाशः सर्वत्र अस्ति, तर्हि तत्र अभावः कथं भवति?
तत्र विशेषः कुत्र अस्ति?
विशेषः परमाणुषु अपि च आकाशे नित्यद्रव्येषु.
तर्हि अनित्यद्रव्येषु विशेषाभावः खलु?
अनित्यद्रव्येषु विशेषस्य अभावः.
तत्र विशेषाभावः इति वक्तुं शक्नुमः इति वा भवत्याः?
ओ अस्तु.
परन्तु अत्र किमस्ति वार्ता इति चेत् विशेषे एव अभावः वर्तते इति.
कथं?
एतदर्थम् अग्रे किञ्चित् गत्वा अभावस्य चतुर्विधत्वम् इति पश्यामः, तत्र अवगच्छति. एकस्मिन् पदार्थे अत्र सर्वदा भवति अभावः, सः कीदृश अभावः इति पश्येम अग्रे गत्वा.
तर्हि आत्मा अस्ति चेदपि आत्मनः अभावः भवति वा?
आत्मनि आत्मनः अभावः नास्ति,
परन्तु अन्यत्र वा?
आत्मनि अपरस्य कस्यचित् अभावः अर्हति इति, सः एव अत्र अभावः इति दर्शितः. अग्रे यदा अत्र अभावस्य चतुर्विध पश्यामः तदा स्पष्टं भवति.
अस्तु अस्तु भगिनि, धन्यवादः.
अस्तु इतः अग्रे अस्तु. प्रथमतया के एकादशजनाः सन्ति. अस्तु, विजया भगिनी, विद्या भगिनी, अरुणा भगिनी, वेणुगोपालमहोदय, ऐना भगिनी, सरला भगिनी, शिवराम महोदय, श्रीधरन् महोदय, रघुपति महोदय, भानुचैतन्य महोदय. अन्य कोऽपि अस्ति वा यस्य नाम मम नास्ति? अस्तु अग्रे गच्छामि. वेणुगोपाल महोदय, तर्हि अग्रे कृपया.
अस्तु भगिनि, विरोध निरूपणम् अयं घटाभावः, घटस्य अभावः, वयं च घटे सति च ज्ञायते. घटे असि आसति ज्ञायते. लोके हि एवं विधा स्थितः. विरोधः इति व्यवहारेते. यथा नकुल आसीत् चेत् सर्पः न भवति. सर्पः आसीत् चेत् एवम् अस्ति चेत् सर्पः अस्ति चेत् एवं विदम्भः विद्मः अत्र नकुलः नासीति नासीत् नास्तीति. अयं घटाभावः, घटस्य अभावः. अत्र यदि घटं न भवति चेत् तत् घटाभावः इति अस्ति वा?
घटाभावः इत्युक्ते घटस्य अभावः तावत् अग्रिमवाक्यं किम् अयं च
अयं च
अयम् इत्युक्ते किं तत्र
अयं च घटः
घटाभावः पूर्वस्मिन् घटाभावस्य चर्चा जायमाना आसीत् खलु अयं घटाभावः घटस्य अभावः अयं च इत्युक्ते घटाभावः किम्
अग्रिमः अयं च घटे सति न ज्ञायते घटाभावः च घटे सति च न ज्ञायते सति इत्युक्ते घटे सति अस्तु अस्तु अस्तु
अवगच्छति वा घटे सति इति
सति अस्तु
सामान्य
सति
इति प्रयोगः तत्र यदा तदा इत्यस्मिन् अर्थे अस्तु यदा घटः अस्ति तदा किं न ज्ञायते
घटस्य अभावः न ज्ञायते
इत्येव वाक्यस्य अर्थः अयं च इत्युक्ते घटाभावः घटे सति यदा घटः अस्ति सत् इति शत्रन्तपदम् अस् धातोः तस्य सप्तमी सति तर्हि घटे सति अयम् अभावः न ज्ञायते घटे असति अग्रे पठतु महोदय
अस्तु अस्तु घटे असति ज्ञायते घटे घटे अस्ति इति ज्ञानं भवति
घटे सति न ज्ञायते नाम यदा घटः अस्ति तदा घटाभावः न ज्ञायते स्पष्टं वा
घटाभावः न ज्ञायते
घटे इति उक्तं घटे असति इत्युक्ते सति इत्यस्य विरुद्धम्
अस्तु अस्तु
घटे असति तदा घटाभावः ज्ञायते खलु
अस्तु अस्तु घटाभावः ज्ञायते अस्तु लोके हि एवं विधा स्थितः एकं विधा विधा स्थितः लोके एकं विधि एकं पद्धति इति अस्ति
महोदय महोदय तत्र पठतु
लोके हि एवं विधा अस्तु लोके हि एवं विधा स्थितिः एवं विधा लोके हि एवं विधा स्थितिः
लोके एवं विधा स्थितिः इत्युक्ते एतादृशी स्थितिः
एतादृशी स्थितिः अस्तु
एतादृशी स्थितिः किम् इति व्यवह्रियते
विरोधः इति व्यवह्रियते विरोधः अस्तु अस्ति चेत् नास्ति इति विरोधः अस्ति इति व्यवह्रियते
हा नाम तत्र यदा घटः अस्ति तदा घटाभावः न ज्ञायते
अस्तु अस्तु यदा
यदा घटः अस्ति घटाभावः न ज्ञायते किन्तु
ज्ञायते
यदा घटः नास्ति तदा अभावः ज्ञायते किल
अस्तु 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 धन्यवादः
तत्र परस्परविरोधः दृश्यते न वा
विरोधः दृश्यते भगिनि यथा नकुला अस्ति चेत् सर्पः न भवति नकुलः भवति सर्पः तु भवति किल
चिन्तनं समीचीनं महोदय किन्तु अग्रे पश्यामः
सर्पः अस्ति चेत् एवं विद्भः अत्र नकुलः नास्ति इति सर्पः अस्ति चेत् एवं विद्भः इत्युक्ते न जानामि
विद्मः विद्मः इत्युक्ते
विद्मः
जानीमः
जानीमः
हा विद् इति धातुः अत्र तर्हि विद्मः इत्युक्ते जानीमः किं जानीमः सर्पः अस्ति चेत् किं जानीमः
तत्र नकुलः अस्ति इति जानीमः
नकुलः
नास्ति चेत् अस्तु नकुलः नास्ति चेत् सर्पः अस्ति इति जानीमः वा
इत्युक्ते परागतरीत्या कथासु इत्यादिषु पञ्चतन्त्रकथा इत्यादिषु कथासु वयं जानीमः खलु नकुलः इत्युक्ते मङ्गूस्
मङ्गूस्
सर्पः स्नेक् वैर्यम् अस्ति किल, वैरिणौ द्वौ अपि इत्युक्ते परस्परविरोधः विद्यते उभयोः मध्ये. तादृशविरोधः, हा तादृशः एव विरोधः पुनः अपि च घटाभावः अनयोः मध्ये अपि वर्तते. अस्तु, प्रश्नः वा कस्यचित्? अस्तु अग्रे
भगिनि, विद्मः द्वितीयगणं भवति
किं
व्याकरणे?
किं
अदादिगणं भवति द्वितीयगण विद्मः क्रियापदं
खलु विद्या भगिनि?
आं सत्यम्, अदादिगणे एव.
अदादेव, अदादेव, यतोहि तत्र किं विकरणप्रत्ययः किमपि नास्ति मध्ये. अन्य कोऽपि प्रश्नः वा?
भानुचन्द्रमहोदय, विरोधः इत्युक्ते तत्र घटस्य भावः, घटस्य अभावः, एतद्वयं विरोधः इति मन्ये किम्?
सर इतोपि सरलरीत्या वक्तव्यं चेत् घटः घटाभावः अनयोः मध्ये विरोधः अस्ति, परस्परविरोधः.
घटः घटः भावः,
घटः अपि च घटाभावः, घटस्य अभावः घटाभावः, घटः अपि च घटाभावः अनयोः मध्ये परस्परविरोधः. बुद्ध
भगिनि, मम एकः प्रश्नः अस्ति. भवती पूर्वम् उक्तवती सत्ता द्रव्ये गुणे गुणे कर्मणि अस्ति, तस्य सत्ता विशेषे वा समवाये नास्ति वा समानि?
तदर्थमेव अस्तु अस्तु भगिनि, सरला भगिनि भवती वदतु. अधुना सत्ता इति एका जातिः खलु? जातिः, जातिः इत्युक्ते सामान्यं खलु? सामान्यं कुत्र कुत्र वर्तते?
समानानां धर्म सामान्यं, सामान्यं वर्तते गुण द्रव्ये कर्मणि,
त्रिषु स्थलेषु वर्तते खलु?
त्रिषु स्थले, आम्.
हा, अतः सत्ता इति जातिः पारिभाषिकशब्दः. द्रोणमहोदय अपि उक्तवान् तदर्थं पुनः.
तर्हि अहं पृच्छामि.
हा हा, पुनस्मरणं भवतु इति उक्तवती तावदेव. सत्ता इति लोके सत्ता इति अस्तित्वम् इति वयं चिन्तयितुं शक्नुमः, किन्तु न्यायशास्त्रे सत्ता पारिभाषिकशब्दः जातिः इति. द्रव्यं सत्, गुणः सन्, कर्म सत् इति यत्र व्यवहारः भवति तत्र इति एका जातिः स्वीक्रियते द्रव्यगुणकर्मसु. तर्हि सत्ता इति जातिः त्रिषु एव वर्तते.
अस्तु
अस्तु,
धन्यवादः.
हा अस्तु, तर्हि इतः गच्छेम. आना भगिनी अग्रे पठति वा?
अस्तु. वध्यघातकभावरूपः विरोधः. अयं विरोधः द्विविधः भवति, वध्यघातकभावः सहानावस्थानम् आहेः नकुलस्य च विरोधः वध्यघातकभावरूपः. तथा हि कुत्रचित् सर्पः अस्ति.
प्रथमतया आना भगिनी, तर्हि विरोधः, वयं विरोधः विरोधः इति वदामः खलु, विरोधः इति जानाति वा?
ओपोजिट्,
हा चिनम् अपोजिशन् इति. तर्हि विरोधः द्विविधः, तौ द्वौ विधौ कौ अस्ति सः तत्र?
वध्याघातकभाव एण्ड् सहानवस्थानम्.
समीचीनं भगिनि, इति
किन्तु न जानामि किम् इति
इतः अग्रे आगच्छति. अग्रे पठतु. हा,
प्रथमक्षणः
भगिनी
सर्पः
अहेहे अपि च तद्वाक्यं
अहेहे नकुलस्य च विरोधः वध्याघातकभावरूपः.
अहिः इति जानाति वा?
न.
अहिः इत्युक्ते सत्तः.
सत्तः
सर्पः. सर्पः स्नेक् इति.
ओके.
अहिः इत्युक्ते सर्पः. अहेः इति षष्ठी विभक्ति यथा मुनेः अहेः नकुल च विरोधः वध्यघातकभावविरोधः. वध्यघातकभावविरोधः किम् इति अग्रे पश्येम. अस्तु, चित्रं पठतु. चित्रे किमस्ति इति.
प्रथमक्षणः सर्पः एव अस्ति. द्वितीयक्षणः सर्पः एव अस्ति. तृतीयक्षणः सर्पः अस्ति. नकुला अपि अस्ति. नकुलः अपि अस्ति. चतुर्थक्षणः सर्पः नष्टः. नकुलः अस्ति.
अवगच्छति वा अधुना? प्रथमक्षणे किमस्ति?
सर्प एव.
द्वितीयक्षणे?
सर्प एव.
तृतीयक्षणे?
सर्प नकुलः च.
हा, तर्हि तृतीयक्षणे सकुलः नकुलः अपि च सर्पः उभयोः एकत्र स्थितिः. अस्तु, चतुर्थक्षणे किम् अभवत्?
नकुल एव.
नकुल एव अस्ति. सर्पः
नष्टः.
सर्पः नष्टः इत्युक्ते सर्पस्य मारणं जातं, मरणं जातम् इति. अस्तु, नकुलः सर्पं हन्ति इत्युक्ते सर्पस्य मरणं करोति नकुलः. अतः नकुलः घातकः, सर्पः वध्यः. वध्यः इत्युक्ते यस्य मरणं जातं सः वध्यः इति.
प्रथमक्षणे द्वितीयक्षणे अपि नकुलः अस्ति एव?
नास्ति.
अस्ति. नकुलः कुत्र अस्ति?
अपरत्र कुत्रचित् अस्ति. हा, कुत्रापि अपरत्र स्यात्. अस्तु, यत्र सर्पः अस्ति. हा, इति एव वेणुगोपालमहोदय अपि किञ्चित् पृष्टवान् इति भाति. नकुलः अस्ति चेत् सर्पः अपि भवितुम् अर्हति खलु? हा, भवति. अपरत्र कुत्रचित् स्यात्. प्रथमक्षणे द्वितीयक्षणे सर्पस्य परितः नकुलः नास्ति इति चिन्तयतु. किन्तु तृतीयक्षणे यदा सर्पनकुलयोः एकत्र प्राप्तिः भवति, एकस्मिन् क्षणे एव तथा भवति. उभयोः विरोधः अस्ति खलु महोदय? इति कृत्वा चतुर्थक्षणे एकः नष्टः भवति. सर्पः नष्टः, सः वध्यः. नकुलः सर्पं मारयति इति कृत्वा नकुलः घातकः. अवगतम्?
अवगतम्.
अना भगिनी, अवगतम्?
एतानि वध्यघातक नहन.
वध्यघातक इत्यस्य अत्र विवरणमस्ति. प्रथमतया सर्पः वध्यः. वध्यः इत्युक्ते यस्य मरणं जातं. मरणम् इति जानाति खलु? दट् विच् डैड् इस् वध्यः. नकुलः घातकः. घातकः इत्युक्ते हन् धातुतः मिलिति प्रत्ययः. यथा नायकः, गायकः, यः हनन् गायति इति गायकः खलु? यः हननं करोति अथवा कमपि मारयति सः घातकः.
ओके.
नकुलः
प्रत्ययमस्ति खलु तत्र भगिनि?
आं भगिनि, ल् इति प्रत्ययः. सम्यक्. एकनिमिष, अग्रे गच्छेम. एतावत्पर्यन्तम् अवगतं वा किमस्ति अत्र इति? वध्यघातकविरोधः इति उच्यते सर्पस्य नकुलस्य. बुद्धं?
तर्हि भगिनि, अत्रापि समान अधिकरणे अस्ति चेत् एव अभावस्य प्रश्नः आगच्छति अथवा विरोधस्य प्रश्नः.
सत्यम् इति वध्यघातकस्थले समानाधिकरणम् इति वध्यघातकस्थले. अग्रे गत्वा पश्येम सहानावस्थानस्थले किं भवति इति. बुद्धं वा एतावत्पर्यन्तं सर्वैः? अस्तु, तर्हि अग्रे गच्छामः. शिवरां महोदय, अग्रे पठतु महोदय. अत्र अस्ति वा?
अयं विरोधः द्विविधः भवति,
तदभवत् महोदय, तथा च इति,
तथा च, तथा च वद्यघातकभावरूपे विरोधे ययोः विरोधः वर्ण्यते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति, यथा प्रकृत उदाहरणे सर्पस्य नकुलस्य च तृतीयक्षणे एकत्र स्थितिः, एवम् एकेन अग्रिमक्षणे तथा ततः अपि अधिककालेन वा अपरस्य नाशः क्रियते। अयं विरोधः शास्त्रे वद्यघातकभाव इति प्रसिद्धः। तत्र वद्यघातकभावरूपे विरोधः, अत्र विरोधः वर्ण्यते, तयोः उभयोरपि कस्मिंश्चित् क्षणे काले एकत्र स्थितिः भवति, स्थितिः भवति नाम तत्र सर्पः तथा नकुलः एतयोः द्वयोः उपस्थितिः एकस्मिन् काले उपस्थितिः भवति, नाम सर्पस्य तथा नकुलस्य अभावः एकस्मिन् काले नास्ति, किन्तु नकुलः सर्पस्य हननं करोति, यदा सः सर्पस्य हननं करोति वा खादति तदा सर्पः नष्टः भवति।
हा इति अस्ति, परन्तु तत्र चतुर्षु क्षणेषु,
चतुर्षु क्षणेषु प्रथमक्षणे सर्पः अस्ति, द्वितीयक्षणे सर्पः एव अस्ति, तृतीयक्षणे सर्पः तथा नकुलः द्वयोः उपस्थितिः तत्र अस्ति, तृतीयक्षणे सर्पः अपि अस्ति नकुलः अपि अस्ति, अनन्तरं सर्पः नष्टः भवति नकुलः अस्ति।
इति वद्यघातकभावविरोधः,
वद्यघातकभावः, एकः वद्यः अस्ति, वद्यः नाम यस्य वधं भवति, यः मरति, घातकः नाम यः हननं करोति वा यः मारयति।
समीचीनम् इति अस्ति। अत्र वाक्यं किम् इत्युक्ते एकस्मिन् क्षणे कस्मिंश्चित् क्षणे अपि भवतु उभयोः विरोधिनोः एकत्र स्थितिः स्यात् इति अस्मिन् विधे तथा अस्ति। उदम् स्पष्टता अस्ति वा सर्वेषां मनसि अस्य विषये?
सर्वदा नकुलस्य विजयं भवति वा, सर्पः सर्वदा मरणं भवति वा?
न जाने महोदय, किन्तु तथा अस्ति खलु कथासु, तदर्थमेव परम्परारीत्या एकम् उदाहरणं स्वीक्रियते इति मम चिन्ता। तदेव उदाहरणार्थं स्वीकृतं तावदेव। सर्पः
विरोधः अस्ति चेत् एकः समर्थः एकः असमर्थः,
यः कोऽपि समर्थः सः
सः मारयति, यः असमर्थः सः मरति
इति। अस्तु, अत्र नकुलः घातकः इति स्वीकुर्मः उदाहरणार्थं।
न धावति वा?
हा तथा स्यात्, केवलम् अत्र उदाहरणार्थम् एकः वद्यः भवति अपरः घातकः भवति इति प्रदर्शनार्थं तथा कृतवन्तः। पञ्चतन्त्रकथायां तथा अस्ति इति भाति, तदर्थं परम्परागतरीत्या एकः उदाहरणं स्वीकरणीयम् एवं स्वीकृतवन्तः इति चिन्तयामि। अस्तु
अस्तु,
अग्रे श्रीधर् महोदय अग्रे पठतु।
सहान अवस्थानरूपः विरोधः अभावस्थले। सहान अवस्थानं नाम सः विरोधः यत्र उभयोः विरोधिनोः कस्मिन् अपि काले सः अवस्थानं स्थितिः न भवति। प्रथमक्षणः घटाभावः, द्वितीयक्षणः घटाभावः, तृतीयक्षणः घटः, चतुर्थक्षणः घटः। अत्र सहान अवस्थानं नाम स विरोधः यत्र उभयोः विरोधिनोः कस्मिन् अपि काले सः अवस्थानं स्थितिः न भवति। अर्थः उदाहरणं दत्तः, घटः अस्ति एकस्मिन् क्षणे घटः अस्ति, अन्यक्षणे अपि घटः अस्ति, तृतीयदिने घटः नाशः
महोदय चित्रं वर्णयति वा? भवान् चित्रं वर्णयति खलु, तर्हि चित्रे प्रथमक्षणे किम् अस्ति?
घटः नास्ति, भूतले भूतलम् अस्ति चेत् घटः नास्ति, घट अभा घट अभावः अस्ति, तत् घटं नास्ति, घटः नास्ति. द्वितीयक्षणे अपि घटः नास्ति. तृतीयक्षणे कोऽपि घटम् आगत्य स्थापयति, अतः घटः अस्ति भूतले. चतुर्थक्षणे अपि घटः अस्ति. एकस्मिन् क्षणे घटः घटाभः द्वे न स्तः.
ययोः विरोधः, अत्र विरोधः कयोः मध्ये अस्ति?
घटः घटाभावः.
तयोः एकस्मिन् क्षणे, कस्मिन् क्षणे भवतु, एकस्मिन् क्षणे अथवा एकस्मिन् काले एकत्र उपस्थितिः अस्ति वा?
नास्ति.
नास्ति इति एव. कीदृशविरोधः?
सहानवस्थानम्.
सहानवस्थानरूपः. तद् पदं किञ्चित् विभज्य वदतु.
सह न अवस्थानम्.
सह योगः अन योगः अवस्थानम्.
सह अन अवस्थानम्. सहान अवस्थानम्.
सह अन अवस्थानम्. अन इति तत्र कश्चन समासः भवति, नञ् तत्पुरुषसमासः, निषेधात् गच्छति. अव इति तु उपसर्गः. अपि च स्थानं सहानवस्थानम् अनवस्थानम्. एकस्मिन् क्षणे एकस्मिन् काले एकस्मिन् स्थले उभयोः एकत्र प्राप्तिः नास्ति. सः इत्युक्ते तावदेव. अस्तु
अस्तु अस्तु.
तादृशम् अस्ति, तादृश अभावः घटस्य अपि च घटाभावस्य. अस्तु, तर्हि वध्यघातकभावस्थले किम् अभवत् महोदय? अस्तु एकनिमिषं, एकनिमिषम्. अस्तु श्रीधर् महोदय समापयतु.
एकस्मिन् क्षणे वध्यघातकविरोधे एकस्मिन् क्षणे द्वे स्तः, तृतीयक्षणे सर्पः अस्ति, नकुलापिः अस्ति. सहानवस्थानरूपे द्वे न कदापि न स्तः एकस्मिन् क्षणे.
इत्येव वार्ता अस्ति. उभयोः मध्ये अयमेव भेदः. वध्यघातकभावस्थले एकत्र प्राप्तिः अस्ति विरोधिनोः. सहानवस्थानरूपविरोधस्थले तु कस्मिंश्चिदपि काले कस्मिंश्चिदपि क्षणे उभयोः विरोधिनोः एकत्र प्राप्तिः नास्ति इति वार्ता. अस्तु विजया भगिनि.
भगिनी अत्र अवस्थानम् इत्युक्ते किञ्चित् क्लेशः वा? अवस्थानम् अन अवस्थानम् इत्युक्ते तत्र नञ्ज तत्पुरुषसमासः अस्ति खलु तत्र.
अवस्थानम् इत्युक्ते एकनिमिषम्, अवस्थानम् इत्युक्ते स्थितिः तावदेव. स्थितिः स्थितिः तत्रैव लिखितमस्ति.
स्थितिः 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 तत्र अन अवस्थानम् इत्युक्ते तत्र नञ्जि तत्पुरुषमेव अन अवस्थानं, तत्र स्थितिः नास्ति.
समीचीनम् इति एव वार्ता अस्ति, इति एव अर्थः अन अवस्थानम् इति. अस्तु अग्रे गच्छतु श्रीधर् महोदय, समापयतु वाक्यद्वयम् अग्रे.
यथा प्रकृते विविधेषु क्षणेषु घटो वा भवेत् घटाभावो वा भवेत् न कदाचित् उभौ, अयमेव सहान अवस्थानरूपः विरोधः इत्युच्यते. चित्रं दत्तः, घटः घटे घटः विरोधः घटाभावः विरोधः.
तद् कथं वदति वाक्यं?
घटनिष्ठविरोधः घटाभावः निष्ठविरोधः.
घटाभावनिष्ठविरोधः. समीचीनं. अस्तु, प्रकृते इत्युक्ते मूलविषये किम् अभवत्?
मूलविषये विविधेषु एकस्मिन् क्षणे एकस्मिन् क्षणे घटः भवति अथवा घटाभावः अभावः भवति भवेत् न कदाचित् उभो कदाचित् द्वे न स्तः.
सत्यम् इति एव तत्र सहानवस्थानरूपविरोधस्थले उभौ अपि एकस्मिन् क्षणे न भवतः इति. अपि च यस्मिन् चित्रे यद् वर्णितं भवता तत्र प्रदर्श्यते इति चेत् घटे अपि विरोधः अस्ति, घटाभावे अपि विरोधः अस्ति इति. घटे घटाभावं प्रति अस्ति अथवा घटाभावस्य विरोधः अस्ति. तद्वदेव घटाभावे विरोधः अस्ति प्रति इति प्रदर्शितमत्र. तावदेव.
भगिनि एकः प्रश्नः, किमस्मिन् स्थाने यदि किं न भवति तत्र अभावः अथवा यदि किमस्मिन् कुत्र न किं न अस्ति चेत् तत्र अभावः अथवा विरोध शब्दः अपि अस्ति वा?
प्रश्नः न अवगतः महोदय, कुत्र किं नास्ति?
इफ् नथिङ्ग् इस् देर्.
नथिङ्ग् इस् देर् इति भवान् वदति खलु?
अस्तु अस्तु. तत्र
हा हा, नथिङ्ग् इस् देर् इत्युक्ते अभावः तत्र इति. तर्हि भवान् यद् अभावस्य अभावः इति वक्तुम् इच्छति?
अस्तु 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 अस्तु. अस्तु,
अग्रे गत्वा इतोपि गभीरतया चिन्तनं कुर्मः. अभावः इत्यपि अभावस्य अभावः अपि भवितुम् अर्हति. तदर्थमेव अष्टमे पुटे पश्यतु, तत्र अष्टमे पुटे किं कस्मिन् अस्ति इति तत्र सर्वं प्रदर्शितम्. अभावः इत्यस्मिन् अभावः इत्यपि प्रदर्शितम्. अस्तु, इत्युक्ते अभावे अपि अभावः भवितुम् अर्हति तथा. किमपि नास्ति चेत् तत्र अभावः. तर्हि किम् आनयामश्चेत् तत्र विरोधः भवति अभावं प्रति इति. अस्तु अस्तु, अग्रे सरेम. रघुपति केवलं शृणोति इति खलु अद्य? अस्तु, अग्रे
पठामि. प्रतियोगि अनुयोगि भावनिरूपणम्. अत्र निरूपणसौकर्याय घटे विद्यमानस्य विरोधस्य प्रतियोगिता इति संज्ञा कृता. अभावे विद्यमानस्य विरोधस्य अनुयोगिता इति संज्ञा. अत्र घटे विद्यमानस्य विरोधस्य नामकरणमस्ति प्रतियोगिता इति. अभावे यः विरोधः अस्ति तस्य अनियोगिता इति नामकरणं कृता निराकार.
इति सरलमेव, अत्र किमपि नास्ति. अस्तु, चित्रं दृष्ट्वा निष्ट उपयुज्य वदतु तत्र किं भवति.
अत्र घटनिष्ठप्रतियोगिता, अभावनिष्ठ अनियोगिता.
तावदेव. यः विरोधः घटे अस्ति तस्य नाम
प्रतियोगिता. अभावे अस्ति चेत् अभावनिष्ठानियो अनियोगिता.
हा, इत्युक्ते विरोधस्य नामकरणार्थम् अनुयोगिता प्रतियोगिता. अस्तु, अग्रे पठतु महोदय.
इयं प्रतियोगिता अनियोगिता च साकाङ्क्षा भवति. विरोधः प्रतियोगिता इत्युक्तौ कस्य इति नियमेन खलु प्रश्नः भवति. एवम् अनियोगितायाः अपि ससम्बद्धिकत्वम्. अतः आधे अधिकरणतयोः यथा निरूपकभावः उच्यते तथा अत्रापि वक्तव्यः. यथा अधिकरणता ससम्बन्धिका अस्ति तत्रापि प्रतियोगिता अनियोगिता विरोध अपि ससम्बद्धिका साकाङ्क्षाः.
साकाङ्क्षा पुनः अद्य पुनस्मरणत्वेन पश्यामः, किन्तु साकाङ्क्षा इति स्मरति वा?
हा साकाङ्क्षा स्मरामि. यदि वयम् अधिकर्णता उच्यते तदा आधेयता कस्य, तस्य आधेयता किम् इति प्रश्नः अपि भवति. सा साकाङ्क्षा इति उच्यते.
एकं श्रुत्वा अपरस्य जिज्ञासा अथवा अपरं ज्ञातुम् इच्छामश्चेत् तादृशपदार्थद्वयकाङ्क्षापदार्थौ इति वदामः. अत्र किमुक्तं, प्रतियोगिता इत्युक्ते कस्य इति प्रश्नः भवति किल, कस्य प्रतियोगिता इति प्रश्ने कृते तत्र तर्हि अनुयोगः कीदृशी इति वक्तव्यं भवति. अतः एव अत्र उक्तं प्रतियोगिता इति, प्रतियोगिता अनुयोगिता च साकाङ्क्षा भवति. अस्तु
भगिनि, एकवारं प्रतियोगिता कस्य इति एकवारं भगिनि.
हा भगिनि, तद्वाक्यं वा प्रश्नः कः भगिनि? विजया भगिनि,
कस्य प्रतियोगिता इति भवत्या उक्तं खलु तत्र, अहं न श्रुतवती एकवारमपि, कृपया.
तर्हि तद् वाक्यं पठतु. द्वितीयवाक्यं विरोधः प्रतियोगिता इति वाक्यं पठतु. पश्यति वा तत्र भगिनि यद् महोदयेन पठितं तत्र एकं वाक्यम् अस्ति, प्रतियोगिता इत्युक्ते कस्य प्रतियोगिता इति प्रश्नः भवति खलु.
आं भगिनि,
कस्य प्रतियोगिता इत्युक्ते तत्र प्रतियोगिता इति विरोधः कं प्रति विरोधः, कस्य अभावं प्रति विरोधः इति प्रश्नः उदेति. तदा अभावे विद्यमान अनुयोगिता कीदृशी इति ज्ञातव्या भवति. अस्तु, प्रतियोगिता इति दृष्ट्वा इतोपि ज्ञातुम् अस्माकं जिज्ञासा भवति इति कृत्वा अपि च अनुयोगिता साकाङ्क्षा पदार्थौ अथवा ससम्बन्धिकपदार्थौ इति वदामः.
धन्यवादः.
अस्तु, समीचीनं. तर्हि अग्रे भानुचैतन्यमहोदय अग्रे पठति वा?
एकनिमिषं भगिनि.
रघुपतिमहोदयेन प्रायः म्यूट् करणीयं भवति.
घटनिष्ठा इति,
हा हा, तत्र महोदय प्रतियोगिता अनुयोगिता सम्बन्धिकपदार्थौ इति उक्तं खलु, ससम्बन्धिकपदार्थौ अथवा साकाङ्क्षापदार्थौ इति. तर्हि तयोः मध्ये कीदृशभावः भवति? भानुचैतन्यमहोदय स्मरति वा? एवं करोतु, चित्रस्य अधोभागे यदस्ति तत् पठतु प्रथमतया.
घटनिष्ठा प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः, तदेव भगिनि
इति प्रथमचित्रं. यथा वयं पूर्वमपि चर्चितवन्तः, किमस्ति भानुचैतन्यमहोदय, घटे किमस्ति? प्रतियोगिता अस्ति खलु, महोदय? महोदय शृणोति वा भानुचैतन्यमहोदय? हरि ओम्. अस्तु विजया भगिनी, तर्हि समापयतु भगिनी, तत्र वाक्यं किं भवेत्? तत्र घटे किमस्ति?
अहं वा भगिनी? घटनिष्ठप्रतियोगिता निरूपित अनियोगितवान् अभावः.
हा समीचीनम्, इति अभावस्य वर्णनं जातम्. अस्तु अग्रे अग्रिमचित्रम्.
अग्रिमचित्रम् अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः
घटः अथवा प्रतियोगितावान् घटः इति अपि भवितुम् अर्हति. केवलम् अत्र प्रतियोगिता अनुयोगिता ससम्बन्धिकौ पदार्थौ तयोः मध्ये निरूप्य निरूपकावः तं निरूप्य यथा तथा तं निरूपक निरूप्य निरूपकभावम् उपयुज्य अभावः कीदृशः इति वर्णनं सञ्जातं. घटनिष्ठ प्रतियोगिता निरूपित अनुयोगितावान् अभावः अथवा अनुयोगिताश्रयः अभावः इति. अस्तु तर्हि
धन्यवादः.
अधस्तनचित्रं पश्यतु भगिनि. अभावनिष्ठ अनुयोगि निरूपित
प्रतियोगिताश्रयः
घटः इति आगतं खलु. अधुना प्रतियोगिता वर्णनं करोतु भवती कर्तुं शक्नोति वा?
घटनिष्ठ प्रतियोगिता निरूपित अभावनिष्ठ अनियोगिता.
बहु समीचीनं. ततः एव प्रतियोगितायाः
अग्रिमं पठामि वा?
हा, प्रतियोगितायाः वर्णनं करोतु इति उक्तवती खलु अहं. तर्हि अभावनिष्ठ
अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिताश्रयः घटः.
हा, भवती तु घटस्य निरूपणं
प्रतियोगितावान् घटः.
पुनः घटस्य निरूपणं कृतवती यथा पूर्वं कृतवती. अभावनिष्ठ अनुयोगिता इति उपरि गच्छति खलु, तद्वत् करोतु.
घटस्य निरूपणं
एकनिमिषं
वा?
अस्तु, शृणोतु. कः करोति? श्रीधरन् महोदय कर्तुं शक्नोति वा प्रतियोगितावर्णनं?
करोमि. अभावनिष्ठ अनियोगिता निरूपित घटनिष्ठ प्रतियोगिता
इति आगच्छति. विजया भगिनी श्रुतवती
वा?
अधोगमनस्य अपेक्षया उपरि गत्वा अन्ते घटनिष्ठ प्रतियोगिता इति वक्तव्यं भवति. तर्हि अग्रे गत्वा वयं पश्यामः प्रतियोगितायाः महत्त्वमस्ति. प्रतियोगिता कीदृशी इति बहुवारं चर्चयामः. तदर्थम् एतद् ज्ञातव्यं भवति. अस्तु, घटाभावनिष्ठ अनुयोगिता निरूपित घटनिष्ठ प्रतियोगिता इत्यादिकं वक्तव्यं भवति. समीचीनं. तर्हि
एकप्रश्न, अनु उपसर्गस्य विरोधः विरोधार्थः भवति वा? अनुगच्छति गच्छति अनुगच्छति विरोधार्थः न भवति. अत्र योगित अनुयोगित
अत्र वार्ता भिन्ना एव महोदय. इत्युक्ते सामान्य लौकिकभाषायां प्रतियोगिता इत्युक्ते काम्पिटेशन् इति अस्ति खलु. न्याये तथा नास्ति. प्रतियोगिता इति एकः विरोधः, तस्य नामकरणं प्रतियोगिता इति चिन्तयतु. अभावे यः प्रतियोगिता क्षम्यतां अभावे यः विरोधः अस्ति तस्य नामकरणं जातम् अनुयोगिता इति चिन्तयतु. तावदेव.
अस्तु
अस्तु
अस्तु.
मम प्रश्नः अस्ति, न अवगच्छामि प्रतियोगिता अनुयोगिता. Is it type of opposition?
It is a name of the opposition. Okay. Anna Bhagini, prathamachitram pushyatu. Prathamachitre kim asti uparitana bhage, ghate kim asti virodha asti khalu. Ghatabhave kim asti punaha?
Virodha
asti. Ubhayatra virodha asti. Tarhi, kaha virodha, kasya virodha asti katham jani maha? Na vaktum shaknu maha khalu. घटनिष्ठविरोधः घटाभावनिष्ठविरोधः. तदर्थं निरूपणसौकर्याय इत्युक्ते अस्माकं मनसि स्पष्टता भवतु कः विरोधः कस्य इति स्पष्टता भवतु इति कृत्वा अभावे यः विरोधः अस्ति तस्य नाम अनुयोगिता. घटे यः विरोधः अस्ति तस्य नाम प्रतियोगिता इति उक्तं. तावदेव. अवगच्छति?
Okay, just name.
Names.
Okay.
विरोधस्य विरोधस्य नामक तावदेव. अस्तु, सम्यक्. तर्हि अनेन अस्माभिः सप्तपदार्थानां परिचयः प्राप्तः इति यतोहि अभावः इति अवशिष्टः पदार्थः खलु, तर्हि अद्य एवं कुर्मः, अवशिष्टसमये आरम्भतः किञ्चित् पुनरावलोकनं कुर्मः. अस्तु, तर्हि सर्वे कृपया प्रथमपुटं प्रति गच्छतु. विद्याधरीग्रन्थ प्रथमपुटम् उद्घाटयन्तु. तत्र सरला भगिनी अधुना गृहं प्राप्तवती वा?
आं भगिनि.
अस्तु, तर्हि भगिनि प्रथमे पुटे वयं किं किं दृष्टवन्तः चेत् न्यायशास्त्रस्य परिचयत्वेन किञ्चित् उक्तमासीत् तत्र. अस्तु, जगति यावन्ति वस्तूनि सन्ति तेषां सर्वेषां ज्ञानं दुःशकं भवति इति कृत्वा नैयायिकैः केनचित् उपायेन ज्ञानं सम्पादितम्. तर्हि तत्र अस्तु, तं परिच्छेदं पठतु भगिनि आरम्भतः. जगति अनेकानि,
जगति अनेकानि वस्तूनि सन्ति, पर्वताः, नद्यः, गृहाणि, मनुष्याः, इतरे प्राणिनः, वनानि, नगराणि इत्यादीनि. तेषां ज्ञानेन बुद्धिः विशदा विचारसमर्था भवति, परन्तु ते अनन्ताः अनेकविधाश्च, अतः सर्वेषां सर्वविधानां ज्ञानं दुष्कम्. अतः किञ्चन वस्तु यद् बहुषु वर्तते तदादाय तेषां ज्ञापनाय पूर्वाचार्यैः यत्नः कृतः. अत्र दत्तमस्ति जगति अनेकानि वस्तूनि सन्ति अनन्ताः, यथा पर्वता, नद्यः, गृहाणि, मनुष्या, इतरे वनानि. बुद्धौ एतत् सर्वे वस्तूनि, सर्वाणि वस्तूनि विचारं कर्तुं बहु दुष्करं भवति, तस्य स्मरणम् अधिक कष्टकरं भवति. तस्य समाधानाय अस्माकं पूर्व आचार्यैः एका विविधा सूचितं वस्तूनि श्रेणी कृतवन्तः. तस्य श्रेणी इदम् अत्र दत्तम् अस्ति. एकम् अस्ति द्रव्यं,
द्रव्यमिति श्रेणी. तस्मात् पूर्वं तेषाम् उपायः कः आसीत्? अत्र उक्तमस्ति सर्वेषां सर्वविधानां ज्ञानं दुःशकम्, अतः किं कृतवन्तः ते?
ते वदन्ति सर्वाणि वस्तूनि तेषां ज्ञानं मनसि निधाय दुष्करं भवति. कथं तस्य ज्ञानं वयं स्मरामः?
इत्यस्य उपायः कः?
इत्युक्ते किं भगिनि? विशदा,
बुद्धिः विशदा इत्युक्ते बुद्धिः परिष्कृता भवतु,
परिष्कृता
भवतु.
अतः कञ्चन वस्तु यत् बहुषु वर्तते तदाधाय तेषां ज्ञापनं, यथा कश्चन वस्तु बहुषु वस्तूनि वस्तुषु वर्तते तस्य आदाय ते श्रेणी कृतवन्तः. यथा द्रव्ये गुणं भवति, सर्वे द्रव्याणि गुण अस्ति, तथैव तस्य आधारे ते वस्तुनः श्रेणी कृतवन्तः.
किञ्चन वस्तु यद् बहुषु वर्तते, नाम अत्र उदाहरणत्वेन गुणः इति स्वीकृत्य, अस्तु, गुणः बहुषु वर्तते, यत्र यत्र गुणः वर्तते तस्य नामकरणं किम्?
द्रव्यं, द्रव्यं तस्य अधिकरणं द्रव्यं भवति. द्रव्यम् आधारे गुणद्रव्ये तिष्ठति.
हा, गुणद्रव्ये तिष्ठति, अतः आदाय गुणं स्वीकृत्य द्रव्याणां ज्ञापनं कृतं पूर्वाचार्यैः. अस्तु, अत्र नवद्रव्याणि कानि इति एकवारं तस्मिन् किं किम् इति.
नवद्रव्याणि पृथ्वी, जलं, तेज, वायुः, आकाश, कालः, दिक्, आत्मा, मनः. तेषाम् अपि प्रथमं पृथ्वी, जलं, तेज, वायुः भवति मूर्तद्रव्याणि यत्र क्रिया वर्तते आकाश कालः दिक् आत्मा मनः भवति विभू द्रव्याणि तत्र क्रिया न वर्तते नित्यद्रव्याणि अपि
एकनिमिष एकनिमिष मनः अपि मूर्तद्रव्यम्
आमामां
तर्हि मूर्तद्रव्याणि चत्वारि आकाशः कालः दिगात्मा पृथिवी जलं
विभूद्रव्याणि आकाशकालः
आकाशः कालः दिगात्मा विभूद्रव्याणि पृथिवी जलं तेजः वायुः मनः द्रव्याणि
मूर्तद्रव्याणि ते अपि किन्तु नित्यद्रव्याणि मनः अपि आगच्छति नित्यद्रव्याणि कोष्ठे वै आकाशकालः
दिगात्मा मनः द्रव्याणि पृथ्वी जलं तेजः वायुः अनित्यद्रव्याणि
अनित्यद्रव्याणि प्रत्येक द्रव्ये केश कश्चन विशिष्ट गुण दत्वा उपरि दत्तम् अस्ति तस्य द्रव्यस्य लक्षणम् अवं वदामः पृथ्व्याम् अस्ति गन्ध जलं शैत्यं तेजसि औष्ण्यं वायोः स्पर्श आकाशे शब्दः काले सङ्ख्या दिक्षि सङ्ख्या आत्मनि ज्ञानं मनसि सङ्ख्या
हा समीचीनमस्ति किन्तु एकमेव एकः एव परिष्कारः काले दिशि अपि च मनसि सङ्ख्या इति विशिष्टगुणः न एवमेव दत्तम्
अस्तु अन्य
एवमेव दत्तं केवलं प्रदर्शनार्थं द्रव्ये गुणः भवति इति प्रदर्शनार्थं दत्तं किन्तु अन्यत् भवती यदुक्तवती तत् सत्यमेव पृथिव्याः विशिष्टगुणः गन्धः जलस्य तेजसः औष्ण्यं वायोः स्पर्शः आकाशस्य शब्दः आत्मनः ज्ञानम् इति विशिष्टगुणः अस्तु
अस्तु
हा अत्र कोऽपि प्रश्नः वा तर्हि अग्रे गच्छन्तु द्वितीयपृष्ठे पश्यन्तु तत्र तदेव उक्तं द्वितीयपृष्ठे प्रथमपरिच्छेदे एवमेव उक्तं गुणः अनुगतं वस्तु अथवा पदार्थः तस्य नाम द्रव्यम् इति बोल्ड् स्थूलाक्षरैः अस्ति पश्यन्तु द्रव्यमिति संज्ञां लभन्ते कानि द्रव्यमिति संज्ञां लभन्ते ये केऽपि गुणस्य आधारः ते द्रव्यमिति संज्ञां लभन्ते इति उक्तं तत्र अस्तु अनेन एवं कृत्वा एकं विशिष्टं पदार्थं स्वीकृत्य तद् बहुषु वर्तते तद् द्रव्यम् अथवा गुणः अपि तथैव किञ्चित् तथैव ते सप्तपदार्थानां श्रेणीकरणं कृतवन्तः इति दृष्टवन्तः न्यायशास्त्रस्य परिचयत्वेन अस्तु इतः अग्रे गच्छेम तत्र चतुर्थं परिच्छेदं विद्याभगिनी पठति वा तत्र
कुतः भगिनी वात्सायनः इति वा
हा हा तद्
वात्स्यायनभाष्यादिग्रन्थेषु एवं वर्णयन्ति प्रथमतः उद्देशः ततः लक्षणं ततः परीक्षा इति उद्देशो नाम नामनिर्देशः द्रव्यमिति कथनं गुणः इति कथनम् अत्र द्रव्यं कथं ज्ञातव्यम् इति न निरूप्यते केवलं संज्ञा उच्यते अतः अयम् उद्देशः केन वस्तुना द्रव्यं ज्ञातव्यं गुणेन यत्र गुणः तद्द्रव्यम् इति कथनं द्वितीयं तदेव लक्षणम् इति उच्यते अत्र वात्स्यायनभाष्यादिग्रन्थेषु प्रथमतया तत्र उद्देशः इति भागः भवति ग्रन्थे तदनन्तरं लक्षणं तदनन्तरं परीक्षा न्यायादिग्रन्थेषु परीक्षा इति भागः नास्ति केवलम् उद्देशः अपि लक्षणम् उद्देशः इत्युक्ते केवलं नामकरणम् अत्र यथा वयम् इदानीमेव दृष्टं तत्र द्रव्यम् इति कथनम् अथवा गुणः इति कथनं तत्सर्वम् उद्देशः इति भागे भवति अत्र पुनः अत्र लक्षणग्रन्थे द्रव्यं कथं ज्ञातव्यम् इति तत्र भवति तत्र केन वस्तुना द्रव्यं ज्ञातव्यम् इति चेत् तत्र लक्षणग्रन्थे गुणेन यत्र यत्र द्रव्यं तत्र तत्र यत्र यत्र गुणः तद्द्रव्यम् इति कथनं तादृशकथनं लक्षणग्रन्थे भवति. तत्र विशिष्टगुणेन द्रव्यस्य निरूपणं भवति लक्षणग्रन्थे. तदेव द्वितीयभागः.
समीचीनं भगिनि. तर्हि यथा भगिन्या उक्तं, प्रथमः उद्देशः इति भागः, तदनन्तरं लक्षणम् इति, अपि च परीक्षा इति भागः. अस्तु, अग्रिमपरिच्छेदमपि पठतु भगिनि किञ्चित्.
हा, गुणः इति पदार्थः द्रव्ये वर्तते न वा, अस्ति चेत् सर्वत्र वर्तते न वा इत्यादि विचारः परीक्षा. तया च परीक्षया विचारः परिपूर्णः भवति. तर्कसङ्ग्रहे उद्देशभागः लक्षणभागः इति द्वयमेव वर्तते, न तु परीक्षाभागः. तत्र परीक्षा इत्युक्ते किम् इति दत्तमस्ति अत्र. यत्र गुणः इति पदार्थः द्रव्ये अस्ति न वा, अस्ति चेत् कुत्र अस्ति, सर्वत्र अस्ति वा इत्यादि विचारः परीक्षा. यत्र परीक्षा इति विचारः अपि भवति, तत्र अस्माकं चिन्तनं सम्पूर्णं भवति. परन्तु तर्कसङ्ग्रहेषु ग्रन्थेषु केवलम् उद्देशभागः लक्षणभागः इति द्वयमेव अस्ति, न तु परीक्षाभागः इति दत्तमस्ति अत्र.
अस्तु, समीचीनं इत्येव वार्ता. अपि च विद्याधरी इति यं ग्रन्थं वयं पठामः, सः ग्रन्थः तु तर्कसङ्ग्रहस्य व्याख्या. तर्हि अस्मिन्नपि केवलम् उद्देशभागः लक्षणभागः इति भागद्वयं वयं परिशीलयामः. अस्तु,
तर्कसङ्ग्रहः मूलग्रन्थः वा?
सत्यं महोदय.
परीक्षाभागस्य आवश्यकता नास्ति वा?
न, यत्र गौतमप्रणीतन्यायग्रन्थेषु गौतममहर्षिणा सूत्राणि, न्यायसूत्राणि प्रदत्तानि खलु, तत्र सर्वमस्ति, परीक्षाभागः अपि अस्ति. किन्तु अन्नम्भट्टः इति कश्चन न्यायिकः तं स्वीकृत्य तर्कसङ्ग्रहः इति ग्रन्थं विरचितवान्. तस्मिन् ग्रन्थे भागद्वयं दत्तं. विद्याधरी इति तस्य व्याख्या इति वार्ता.
महोदये, परीक्षा इत्युक्ते व्याप्तिः इति वक्तुं,
हा समीचीनं महोदय, इति वक्तुं शक्नुमः. एकदृष्ट्या तथैव अस्ति खलु, द्रव्ये कुत्र वर्तते, सर्वत्र वर्तते वा, तत्र वर्तते वा, एतत् सर्वं तत्र चर्च्यते. नाम लक्षणम् इति वदामः, उद्देशः इति वदामः, अस्तु, वयम् एवमेव उक्तवन्तः वा अथवा तस्मिन् सत्यं किमपि अस्ति वा, तादृशी तादृशं भवति परीक्षाग्रन्थे. अस्तु,
अस्तु, अस्तु.
तर्हि इतः अग्रे सरेम वा? अस्तु, तर्हि आरम्भे वयं यं भागं वयम् अधुना पठामः, सः भागः उद्देशभागः इति जानीमः. नाम नाम्ना सङ्कीर्तनं क्रियते, तावदेव, नाम्ना सर्वम् उच्यते, अन्यत् किमपि न क्रियते अत्र इति. इतः तृतीयपृष्ठे भानुचैतन्यमहोदय पठितुम् इच्छति वा? तत्र द्रव्य सप्तपदार्थस्य नाम्ना सङ्कीर्तनमस्ति.
समीचीनं, सम्यक् पठितुं न शक्नोमि इदानीं सङ्गणकयन्त्रे.
अस्तु, तर्हि वेणुगोपालमहोदय तृतीयपृष्ठे यदस्ति उपरितनभागः.
अस्तु, द्रव्यगुणकर्म सामान्यविशेष समवाय अभावः सप्तपदार्थाः. द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः, इमे सप्तपदार्थाः. तत्र पदार्थेशे नामनिर्देशः आदौ द्रव्यं निर्दिष्टं, कुतः यतः इतरे सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति. तत्र सप्तपदार्थाः कानि इति बोधयन्ति. द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति सप्तपदार्थाः सन्ति. तत्र पदार्थेषु नामनिर्देशः आदौ द्रव्यं निर्दिष्टं, तत्र प्रथमपदार्थं द्रव्यम् इति निर्दिष्टन्ति कुतः यतः इतरे सर्वेपि द्रव्यं मिश्रं तिष्ठन्ति किम् अर्थं चेत् सर्वपदार्थानि द्रव्यं द्रव्ये तिष्ठन्ति
हा समीचीनं महोदय द्रव्यम् आश्रित्य तिष्ठन्ति इत्युक्ते द्रव्यं सर्वेषाम् आश्रयः अस्ति खलु इति वयं जानीमः तत्र अष्टमपुटे पुनः कोष्टकं पश्यन्तु तत्र सन्ति अस्तु इति कृत्वा पदार्थस्य निर्देशे द्रव्यम् इत्यस्य निर्देशः आदौ कृतः अपि च एवमेव तत्र नाम्ना सप्तपदार्थाः उच्चारिताः अस्तु सम्यक् अपि च पदार्थः इति पुल्लिङ्ग शब्दः पदार्थाः इति भवेत् न तु
पदार्थाः
सम्यक् इतः अग्रे गच्छेम तर्हि कश्चन मुख्यसिद्धान्तः अस्माभिः दृष्टः आधाराधेयभावः इति तत्र किञ्चित् पठेम तस्मिन् विषये विजया भगिनी पठति वा अत्र इदं कल्पयामः
आं भगिनि पठामि वा
हा हा पठतु भगिनि
आधार आदेय भाव व्यवस्थापनम् अत्रेदं कल्पयामः आसनं प्राणी इति तर्हि तत् आसनम् इदं चिन्तयेत् अहं यज्ञदत्तस्य भारं वहामि इयं भारवहनस्य चिन्ता एव अधिकरणता आधारता इति वा उच्यते अत्र आसनं प्राणी इति द्वे अस्ति द्वे सः आसनम् इति चिन्तयेत् अहम् आसनं चिन्तयति अहं यज्ञदत्तस्य भारं वहामि इति चिन्तयति अनन्तरं यज्ञदत्तः चिन्तयति अहं भारं वहामि
न न न एकनिमिषम् अत्र यज्ञदत्तस्य विषयः न आगतः एव आसनम् इति एकं प्राणी आसनम् इति वस्तुतः प्राणी नास्ति आसनं खलु प्राणी इति नपुंसकलिङ्गे आसनम् इत्यस्य विषयः केवलं वदामि वा
तर्हि तत् आसनम् इति चिन्तयेत् आसनं चिन्तयति अहं यज्ञदत्तस्य भारं वहामि इति चिन्तयति भारवहनस्य चिन्ता एव अधिकरणता
आसनम् अधिकरणम् एकनिमिषः भगिनि
आसनम् अधिकरणम्
शृणोतु आसनम् अधिकरणं तस्मिन् अधिकरणता इति भावः अथवा
वर्तते
वर्तते आसनम् अधिकरणम् अथवा आधारः आधारः इति कृत्वा तस्मिन् कीदृशभावः वर्तते अधिकरणता अथवा आधारः इति भावः वर्तते कस्मिन् अधिकरणे अथवा आधारे तादृशभावः वर्तते धर्मः अधिकरणस्य धर्मः अधिकरणता आधारस्य धर्मः आधारता इति वक्तुं शक्नुमः अस्तु तादृशधर्मः अस्ति आसने यतोहि आसनम् अधिकम् अस्ति अस्तु अग्रे पठतु भगिनि यज्ञदत्तः
यज्ञदत्तः चिन्तयति अहं भारं स्थापयामि इति इयं चिन्ता एव यज्ञदत्ते विद्यमाना आदेयता इति उच्यते यज्ञदत्तं विहाय कश्चित् अचेतनः
वदतु अवगच्छति वा तावत्
यज्ञदत्तः इदानीं चिन्तयति अहं आसने भारं स्थापयामि इति चिन्तयति इयं चिन्ता एवं यज्ञदत्तविद्यमाना आदेयता तत्र आदेयभावः अस्ति
यज्ञदत्तः
आदेय आधारभावः आदेय आधारभावः अस्ति तत्र
यज्ञदत्तः
समीचीनं वा साधु वा
एकनिमिषः यज्ञदत्तः आधेयः अतः यज्ञदत्ते कीदृशधर्मः अस्ति
आदेयता इति धर्मः अस्ति
हा समीचीनम् इति मनसि भवेत् यद् अधिकरणं तस्मिन् अधिकता अथवा आधारता अधेयः तस्मिन् आधेयता इति धर्मः अस्तु एतत् हा एतत् सर्वं वयं किमर्थं चयामः इति अग्रिमपृष्ठे प्रथमवाक्यं पठतु प्रकृतेपि
एकः प्रश्नः
हा वदतु
अधिकरणता अधरता सामान्यपदं
सत्यं भगिनि समानार्थकशब्दौ यतोहि अधिकरणम् इत्युक्ते आधारः अधिकरणम् आधारः समानार्थकशब्दौ तर्हि अधिकरणता इत्युक्ते आधारता एव अस्तु अग्रे विजया भगिनि तत्र अग्रिमे पुटे चतुर्थे पुटे एकं वाक्यं प्रथमवाक्यं पठतु प्रकृतेपि
प्रकृते अपि द्रव्यम् अधः अस्ति गुणः च उपरि अस्ति इति उक्तौ द्रव्ये अधिकरणता गुणे च आधेयता अस्ति इति आयातम् प्रथमपुटे वयं पूर्णं पूर्वम् एव दृष्टवन्तः गुणः उपरि अस्ति द्रव्ये अधः अस्ति द्रव्ये अधिकरणता अस्ति गुणे आधेयता अस्ति इति वयं पूर्वमेव दृष्टवन्तः
तर्हि तयोः मध्ये आधाराधेयभावः अस्ति द्रव्यम् इति आधारः अथवा अधिकरणं गुणः इति आधेयः अस्तु अस्तु इतः अग्रे गत्वा निरूप्यनिरूपकभावव्यवस्थापनम् इति दृष्टम् अस्माभिः तस्मात् प्राक् निरूपणार्थं निष्ठावर्ति इति पदद्वयम् अस्माभिः ज्ञातव्यं तस्य विषये किञ्चित् अद्य अधुनैव पठामः तत्र का अस्तु आना भगिनी पठतु आसने अधिकरणता वर्तते
अस्तु आसने अधिकरणता वर्तते इति इत्यमुं विषयं लघुना उपायेन कथं निरूपणयामः तत्र निष्ठ इति वर्ति इति पदद्वयम् उपकरोति अतः आसननिष्ठ अधिकरणता आसनवर्तिनि अधिकरणता इति वाक्यद्वयं जातं तद्वदेव यज्ञदत्तनिष्ठ अधीयत यज्ञदत्तवर्त्यधीयत इति च वाक्यद्वयम्
अवगच्छति वा भगिनि
निष्ठ वर्ति अपि च सामान्यपद
पदं खलु तर्हि पदे इति द्विवचने अस्तु निष्ठा अपि च वर्ति इत्यस्य अर्थः कः जानाति वा
वर्तते इति
बहु समीचीनं भगिनि वर्तते अपि च वर्ति तस्य सः एव अर्थः विद्यमानः अथवा वर्तते इति अर्थः युक्तः इति अर्थः तर्हि आसने अधिकरणता अस्ति इति वयं दृष्टवन्तः खलु आसनम् अधिकरणं तस्मिन् अधिकरणता अस्ति तदेव आसननिष्ठ अधिकरणता अथवा किम्
आसनवर्ति
अधिकरणता समीचीनम् यज्ञदत्ते आधेयता अस्ति तत् कथं वदति तर्हि
यज्ञदत्ते आधेय निष्ठ
यज्ञदत्तनिष्ठ आधेयता
न अवगच्छामि निष्ठवर्ति वर्तते इति अवगच्छामि किन्तु कथम् उपयुज्यामि न अवगच्छामि
कथम् उपयोगं करोति इति अधुना भवती पठितवती वाट् यु रेड् जस्ट् नौ शोस् हौ टु यूस् निष्ठान् वर्ति आसननिष्ठ अधिकरणता इत्युक्ते आसने अधिकरणता वर्तते अथवा आसनवर्तिनी अधिकरणता आसनवर्ति अधिकरणता इत्युक्ते आसने अधिकरणता वर्तते इति अर्थः तद्वदेव आधेयता आधेयता कुत्र अस्ति भगिनि हना भगिनि
अध्येता योगदत्ते अस्ति.
हा यज्ञदत्ते आधेयत अस्ति, आधेयत वर्तते यज्ञदत्ते इति वदामः. तत् कथं वदामः?
यज्ञदत्तनिष्ठ
आधेयत.
For me it seems adhyayanishta yajnadatte.
No. Yajnadattanishta. Because, astu, prashna asti, adhyayata kutra nishta iti. Adhyayata kutra nishta iti prashna astu. Adhyayata kutra nishta iti ukte, adhyayata kutra vartate iti prashna. Yajnadatte nishta adhyayata iti uttaram. समासपदे जाते यदा समासपदं कुर्मः तदा विभक्ति गच्छति. यज्ञदत्तनिष्ठ आधेयत इत्येव तिष्ठति. अस्तु, एवमेव यज्ञदत्तवर्ति आधेयत इति तिष्ठति. समीचीनं. तर्हि हा, तर्हि अग्रे गत्वा अग्रिमपरिच्छेदे ततः साकाङ्क्षापदार्थौ ससम्बन्धिकपदार्थौ इत्यस्य विषये किञ्चित् दत्तमस्ति. रामः पुत्रः इति वदामश्चेत् रामे पुत्रत्वमस्ति इति जानीमः. पुत्रः इति श्रुत्वा कस्य पुत्रः नाम पुत्रत्वं केन निरूपितम् इति जिज्ञासा भवति. तर्हि रामस्य पिता कः इति वक्तव्यं भवति. अनेन पुत्रः अपि पिता ससम्बन्धिकौ शब्दौ भवतः. तदर्थं पुत्रत्वं पितृत्व ससम्बन्धिकौ पदार्थौ अथवा साकाङ्क्षौ पदार्थौ इति वदामः. तद्वत् अधिकरणता अथवा आधारता इति श्रुत्वा आधेयः कः, कया आधेयतया निरूपिता इति सर्वम् आगच्छति मनसि इति कृत्वा आधेयता अधिकरणता च ससम्बन्धिकौ पदार्थौ इति वदामः. तर्हि ससम्बन्धिकौ अथवा साकाङ्क्षौ पदार्थौ यौ स्तः तयोः मध्ये निरूप्यनिरूपकभावः वर्तते इति वयं जानीमः. अस्तु, इति एव विषयः, निरूप्यनिरूपकभावः इति अग्रिमविषयः. तत्र किञ्चित् उदाहरणत्वेन व्यासनिष्ठनिरूपकता निरूप्यतावती कृष्णकथा अथवा कृष्णकथा निष्ठनिरूप्यता इति दत्तमस्ति. यतोहि व्यासः कथां निरूपयति इति. एवमेव आधारादेयभावस्थले अपि किञ्चित् निरूपणं कुर्मः. षष्ठे पुटे गच्छन्तु सर्वे, षष्ठे पुटे पश्यन्तु तत्र किमस्ति इति. पश्यन्ति वा? अस्तु, तत्र शिवराम महोदय अस्ति. कुलकर्णि महोदय अस्ति. समीचीनं. तर्हि महोदय, तर्हि तद् चित्रमस्ति खलु उपरितनभागे, तद् किञ्चित् विवरणं करोतु. यज्ञदत्तः कीदृशः इति चेत् किं वक्तव्यं भवति?
आसननिष्ठ अधिकरणता निरूपिता निरूपित आधेयतावान् यज्ञदत्तः.
हा, बहु समीचीनम्.
यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणवत् आसनम्.
अधिकरणतावत् आश्रयः इति नियतलिङ्गकशब्दः इति मनसि भवेत्. वान् अपि च वत् इति मतुप्रत्ययः खलु, तर्हि लिङ्गभेदः भवति. आधेयतावान् यज्ञदत्तः, अधिकरणतावत् आसनम् इति. परन्तु यदि आश्रयः इति वदति चेत् अधिकरणताश्रयः आसनम् आधेयताश्रयः यज्ञदत्तः इति. शिवरा महोदय, अस्तु महोदय, अग्रे अपि, हा अग्रे अपि किञ्चित् द्रव्यगुणयोः निरूपणं करोतु तथैव.
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आधेयतावान् गुणः.
हा, समीचीनम्. अग्रे
तथा गुणनिष्ठ अधेयता निरूपित अधिकरणतावत् द्रव्यम्.
तर्हि अत्र अधिकरणता कीदृशी इति जिज्ञासे उदिते सति
अधिकर्णता गुणनिष्ठ अधेयता निरूपित
गुणनिष्ठ अधेयता निरूपित
गुणनिष्ठ अधेयता निरूपित द्रव्य द्रव्यवत् अधिकरणता
उपरि गमनार्थं निष्ठा
द्रव्यनिष्ठ अधिकरणता क्षम्यतां द्रव्यनिष्ठ अधिकरणता
इति मनसि भवेत् उपरि गच्छति चेत् निष्ठा इति स्थापयतु अधोगमनार्थं वत् प्रत्ययः मतुप् इत्यस्य तादृश अर्थः खलु अस्मिन् अस्ति इति अस्तु समीचीनं महोदय तर्हि अत्र द्रव्यगुण द्रव्यम् इति अधिकरणं गुणः इति आदेयः इति कृत्वा निरूपणं सञ्जातम् एवमेव द्रव्ये कर्म सामान्यं विशेषः समवायः अभावः अपि वर्तन्ते इति कृत्वा एवमेव निरूपणं कर्तुं शक्नुमः द्रव्यं सर्वेषाम् अधिकरणं भवति इति आगतम् तु अनेन आधाराधेयभावः निरूप्यनिरूपकभावः इति सञ्जातम् इतः अग्रे गत्वा यतोहि वयम् उद्देशग्रन्थे स्मः तर्हि सर्वेषां नाम्ना सङ्कीर्तनम् इति भवति तर्हि एकवारं तत्र वाक्यानि पठेम हा श्रीधरन् महोदय पठति वा अग्रे द्रव्यगुणकर्म इत्येषां वाक्यानि पठतु निर्देशवाक्यानि
तत्र द्रव्याणि पृथ्वी अप् तेज वायु आकाश काल दिक् आत्मन मनांसि नवेव इति द्रव्ये नव नवविधाः सन्ति तत् ततः गुणान् विभजते रूप रस गन्ध स्पर्श संख्या परिमाण पृथत्व संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्कार चतुर्विंशति गुणाः इति सो गुणे चतुर्विंशति गुणाः सन्ति द्रव्ये नवविधाः सन्ति ततः कर्मणि उक्षेपण अपक्षेपण प्रक्षेपण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि इति
हा समीचीनं महोदय इति केवलं निर्देशः कृतः द्रव्यगुण कर्मणाम् इति तावदेव पञ्चकर्माणि इति प्रतिनिधिरूपेण तत्र कृतानि वस्तुतः अनन्तानि कर्माणि सन्ति इति मनसि भवेत् अस्तु इतः अग्रे गच्छन्तु तर्हि सामान्यम् इतिमः पदार्थः तत्र नवमपुटे पश्यन्तु सामान्यपदार्थः इति अस्ति परमपरं चेति द्विविधं सामान्यम् इति उक्तं तत्र प्रायः का वदति सरला भगिनी किञ्चित् वदति वा सामान्यम् इत्यस्य विषये
समानानां धर्मसामान्यं सामान्यम् इति अस्ति जाति वा धर्म यः द्रवे वा गुणे अस्ति तस्य सूचनां ददाति तस्य विद्यमानत्वं भूत्वा वयं ज्ञातुं शक्नुमः एतत् द्रव्यम् अस्ति यथा कश्चन बालः माता तं सूचयति एतत् प्राणी गौ अस्ति यदि द्वितीय समये अन्य गां पश्यति सः जानाति एतत् सा अपि गौ अस्ति कथं सः जानाति कारण कि तस्मिन् द्वे प्राण्योः एकसमानं धर्म अस्ति तत् समानं धर्म भवति सामान्यं गौत्वं तत्र आसीत् अतः बालः ज्ञातुं शक्नोति इति अस्ति सामान्यं धर्म समानानां धर्म सामान्यम् तस्य द्वे प्रकारे समानस्य प्रकारं द्विधा सन्ति परम् अपरम् अपरं
अधिकेषु वस्तुषु विद्यमानत्वं भवति परत्वं, न्यूनेषु वस्तुषु विद्यमानत्वं भवति अपरत्वं। यथा कोष्ठके दृष्टं, कोष्ठके वयं पश्यामः पुस्तकं, तत्र सामान्यं धनम् अस्ति, पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् अस्ति, नीलरूपम् अस्ति।
भगिनी भगिनी एकनिमिष, सर्वे दशमपुटं पश्यन्तु भगिनी, तत्र कोष्टकमस्ति खलु, तस्य विषये वदति। अस्तु भगिनी, एवं करोतु, एकत्र अनेकजातयः सन्ति इति सत्यमेव, अनेकानि सामान्यानि सन्ति, पुस्तके त्रीणि सामान्यानि इति वयं स्वीकुर्मः, पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् इति खलु। तत्र किञ्चित् वदतु, त्रिषु मध्ये किम् अपरं किं परम् इति वदतु।
अस्तु, त्रिषु मध्ये द्रव्यत्वं भवति परत्वं, पृथ्वीत्वस्य पृथ्वीत्वम् अपेक्षा द्रव्यत्वं भवति परत्वं। कारणकि
भगिनि परत्वम् इति न, द्रव्यत्वं परम् इति वदामः,
परम्
परं सामान्यं कस्य अपेक्षया,
पृथ्वीत्वं तस्य अपेक्षया द्रव्यत्वं भवति परम्। कारणकी द्रव्यत्वं भवति न केवलं पृथ्व्याम्, अपि जले, वायोः, तेजसि अपि भवति, द्रव्यत्वं नवद्रव्याणि अस्ति, सर्वे द्रवेषु द्रव्यत्वं भवति। अस्थ पृथ्वीत्वं तस्य अपेक्षया द्रव्यत्वं भवति परं, किन्तु पुस्तकत्वं भवति पृथ्वीत्वम् अपेक्षया अपरम्। कारणकि पृथ्वीत्वं बहु वस्तुषु अस्ति पृथ्वीत्वं, किन्तु पुस्तकत्वं केवलं पुस्तके अस्ति, अतः पुस्तकत्वं भवति अपरं, पृथ्वीत्वं भवति परम्। एतत् परं भवति तस्य द्वयो वस्तुनोः अपेक्षाः भवति, कः अपरम् अस्ति कः परं भवति।
हा, समीचीनं भगिनि, अस्तु तर्हि। हा, एतत् सर्वं पुनः द्वादशे पुटे सर्वम् अस्ति, द्रव्यत्वादीनां परत्वसाधनम् इति अस्ति खलु, द्वादशपुटं पश्यन्तु सर्वे कृपया, तत्र सर्वम् अस्ति यद् भगिन्या उक्तम्। अपरम् इत्युक्ते केषु वर्तते, यथा पुस्तकत्वं केवलं पुस्तके वर्तते, अतः पृथ्वीत्वापेक्षया पुस्तकत्वम् अपरम् अस्ति, परन्तु द्रव्यत्वं बहुषु वर्तते इति कृत्वा द्रव्यत्वं पृथ्वीत्वापेक्षया परम् इति वदामः। अस्तु, इतः अग्रे विशेषः इति अग्रिमः पदार्थः कः वदति तस्य विषये, किं रघुपतिमहोदय किञ्चित् वदति वा? अस्तु, एवं कुर्मः, समयाभावे सति अहमेव किञ्चित् वदिष्यामि, गृहे पुनः पठतु। अत्र उक्तमस्ति नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः इति, इत्युक्ते विशेषाः अनन्ताः, सर्वेषां सङ्ख्या उक्तं खलु, नवद्रव्य पञ्चकर्माणि इत्यादिकं, तद्वद् विशेषाः अनन्ताः, ते नित्यद्रव्यवृत्तयः, नित्यद्रव्येषु वर्तन्ते विशेषाः, यथा परमाणवः, परमाणवः इति नित्यद्रव्याणि, परमाणुना अवयवाः न सन्ति, अवयवस्य आधारेण तर्हि परमाणूनां भेदज्ञापनं दुःशकम्, अशक्यम् इति कृत्वा परमाणुषु विशेषः इति स्वीकृत्य परमाणूनां मध्ये भेदज्ञापनं क्रियते विशेषस्य प्रयोजनं, तदर्थम् अपरः एकः स्वीकृतः विशेषः इति। नित्यद्रव्येषु विशेषः इति वर्तते, केवलं परमाणुषु इति न, अपि तु आकाशादि नित्यद्रव्येषु विशेषः इति एकः पदार्थः विद्यते इति अन्यतमः पदार्थः। इतः अग्रे गच्छन्तु, गतवर्गे यद्वयं दृष्टवन्तः चतुर्दशे पुटे समवायः इति प्रदर्शितं, पश्यन्ति वा? अस्तु, समवायः इति षष्ठः पदार्थः, सः कश्चन सम्बन्धः। समवायः कुत्र कुत्र वर्तते इत्युक्ते पञ्चस्थलेषु वर्तते, अस्तु, द्रव्ये, गुणे, क्रियायां, सामान्ये विशेषे. किमर्थं तत्र तत्र समवायः इत्युक्ते अवयव अवयविनोः मध्ये समवायः. यथा घटः कपालः, घटः इति अवयवी, कपालः इति अवयवः, तयोः पृथक्करणं विभजनम् अशक्यं. तर्हि तयोः सम्बन्धः कः स्यात् इति प्रश्ने कृते तत्र समवायः, अवयव अवयवयोः समवायः, गुणगुणिनोः समवायः, द्रव्यम् अपि च गुणः, तत्रापि तयोः पृथक्करणं न शक्यं, तत्रापि समवायः इति सम्बन्धः. एवं क्रिया क्रियावतोः, यथा वयं दृष्टवन्तः सर्पः सर्पे प्रसर्पणक्रिया, तयोः पृथक्करणं शक्यम् इति कृत्वा तत्र समवायः. जातिः अपि च व्यक्तिः इत्युक्ते घटत्वम् इति जातिः, घटः इति तत्र व्यक्तिः, तयोः समवायः. पुनः विशेषः अपि च यद्रव्यं, तयोः अपि पृथक्करणं दुःशकम् इति कृत्वा तत्रापि समवायः इति वर्तते इति कृत्वा समवायः इति षष्ठः पदार्थः. पञ्चपुटे एतत् सर्वम् अस्ति, पुनः पठन्तु गृहे. अस्तु, अनेन षड् भावपदार्थाः आगताः, अपि च अद्य यद् वयं पठितवन्तः अभावः इति सप्तमः पदार्थः इति सप्तपदार्थानां ज्ञानम् अस्माभिः साधितमस्ति एतावता. अस्तु,
अस्तु,
समीचीनं तर्हि. अस्तु, कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगयामः. पुनः गृहे पठन्तु कृपया सर्वे. धन्यवादः.
धन्यवादः.
धन्यवादः. धन्यवादः.